ॐ श्री परमात्मने नमः। अथ षोडशोऽध्यायः। श्रीभगवानुवाच। अभयम् सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः दानम् नमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् दयाभूतेष्वलो लुप्त्वम् मार्दवम् धीरचापलम् तेजक्षमादिशौच मद्रोहो नातिमानिता भवन्ति सम्पदम् दैवीमभिजातस्य भारत दम्भोदर्पोऽभिमानश्च क्रोधपारुष्यमेव च अज्ञानम् चाभिजातश्च
भारतसम्पदमासुरीम् दैवी सम्पद्विमोक्षाय
निबन्धायासुरीमत मा श्रुत सम्पदम् दैवीमभिजातोऽसि पाण्डव द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवो विस्तरश प्रोक्त आसुरम् पार्थमेषिणु प्रवृत्तिम् च निवृत्तिम् च जनान विदुरासुरा न शोचम् नापि चाचारो न सत्यम् तेषु विद्यते असत्यमप्रतिष्ठम् ते जगदाहुरनीश्वरम् अपरस्पर सम्भूतम् किमन्यत् काम हेतुकम् एताम् दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतो हिताः काममाश्रित्य दुष्पूरम् दम्भमानमदान्विताः मोहात् गृहीत्वा सद्ग्राहान् प्रवर्तन्तेषु तीव्रता चिन्तामपरिमेयाञ्च प्रलयान्तामुपाश्रिताः कामोपभोगपरमा एतावदिति निश्चिताः आशापाशुषतैर्बद्धा कामक्रोधपरायणाः ईहन्ते काममभोगार्थमन्यायेनार्थसञ्चयान् इदमद्य मया लब्धमिमम् प्राप्स्ये मनोरथम्
इदमस्तिमिदमपि मे
भविष्यति पुनर्धनम् असौ मया हतः शत्रुर्हरिष्ये चापरानपि ईश्वरोऽहमहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्योऽभिजनमानस्मि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिष्य इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ता कामभोगेषु पतन्ति नरकेषु च आत्मसम्भाविताःस्तब्धा धनमानमदान्विताः यजन्ते नाम यज्ञस्ते दम्भेनामिति पूर्वकम् अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः तानहम् द्विषतः क्रूरान् संसारेषु नरादमान् क्षिपाम्यदश्रमशुभानासुरिष्वेव योनिषु आसुरीम् योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्तिदमाङ्गतिम् त्रिविधम् नरकस्येदम् द्वारम् नाशनमात्मनः कामक्रोधस्तथा लोभस्तस्मादेतत्रयम् त्यजेत् एतैर्विमुक्तः कौन्तेय तमो द्वारे स्थितिविनरयाचरत्यात्मनः श्रेयस्ततो याति पराङ्गतिम् यः शास्त्रविधिमुत्सृज्य वर्तते कामकारत न स सिद्धिमवाप्नोति न सुखम् न पराङ्गतिम् तस्माच्छास्त्रम् प्रमाणम् ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहर्हसि कर्म कर्तुमिहर्हसि। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम्
योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः।